गुरु साक्षात् ब्रह्म तस्मै श्रीगुरवे नमः नमो नमः।
धन्यवादः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शत्रुप्रत्ययः शानज् प्रत्ययः इति। तत्र शानज् प्रत्ययस्य रूपाणि दृष्टवन्तः, अपि करपत्रे तत्र प्रायशः तत्र किं प्रथम प्रथमपुटं पठितवन्तः इति मन्ये। तर्हि अतः तत्र प्रायशः तत्र पुनः एकवारं पठामश्चेत् लाभः अस्ति इति मन्ये। तर्हि तत्र वेदभगिनी पठति वा आरम्भतः करपत्रं?
करपत्रं वा महोदय? शानच् प्रत्ययः, शानच् कर्तरि, वर्तमानार्थे आत्मनेपदी धातूनां शानच् प्रत्ययः भवति, परस्मैपदीनां शत्रुप्रत्ययः भवति इति तु पूर्वम् एव ज्ञातम्। शानच् प्रत्यये आन इति भागः अवशिष्यते। शानजन्तरूपाणि यथा वर्धमानः, कम्पमाना, वन्दमानम् इत्यादयः। अधस्तनम् उदाहरणद्वयं पश्यन्तु। बालकः वर्धमानः अस्ति, वृद्धः शयानः अस्ति। प्रथमे उदाहरणे मान इति रूपं दृश्यते, द्वितीये उदाहरणे आन इत्येतावत् एव दृश्यते। तन्नाम प्रथमे उदाहरणे मकारयोगः आन मान, मकारः अधिकतया श्रूयते। एषः मकारः मुक् आगमसम्बन्धी। एवञ्च शानजन्तरूपं ज्ञातव्यं चेत् मकारः मुगागमः कुत्र करणीयः, कुत्र न करणीयः इति प्रथमं ज्ञातव्यम्।
तर्हि किञ्चित् वदतु भगिनी, तर्हि
अद्य वर्तमानार्थे आत्मनेपदी धातूनां कृते शानच् प्रत्ययाः भवन्ति, शानच् प्रत्ययः भवति। परस्मैपदीनां कृते शत्रुप्रत्ययः भवति इति पूर्वमेव वयं दृष्टवन्तः। शानच् प्रत्यये आन इति, शानच् प्रत्यये तत्र अनुबन्धलोपानन्तरम् आन इति भागः अवशिष्यते, आन इति भागः अवशिष्यते। यथा ज्ञान शानजन्तरूपाणि पश्यामः चेत् वर्तमानः, कम्पमाना इत्यादयः दृश्यन्ते। उदाहरणद्वयम् अत्र दत्तमस्ति। बालकः वर्धमानः अस्ति, वृद्धः शयानः अस्ति। प्रथमे उदाहरणे मा इति श्रूयते, मान इति श्रूयते। द्वितीये उदाहरणे आन इति श्रूयते। किमर्थं मान इति रूपं दृश्यते? तस्य मकारः किमर्थं श्रूयते इत्युक्ते मुखः एतत् आगमः भवति, मुख आगमः भवति। आन इति चानत् प्रत्यये आन इति भागः अवशिष्यते। तत्र यदि मुख आगम क्रियते चेत् मान इति रूपं दृश्यते। तदेव शानजन्तरूपं ज्ञातव्यं चेत् मुखागमः कुत्र करणीयः, कुत्र न करणीयः इति प्रथमं ज्ञातव्यम्। आन इति शानच् प्रत्यये आन इति भागं युज्यते, परन्तु कुत्रापि मान इति अपि युज्यते। मान इति रूपं किमर्थम् आयाति, कुत्र आयाति, एतत् सर्वं ज्ञातव्यम्।
समीचीनं भगिनि, हा इति अस्ति। नाम यदि धातुः अस्ति चेत् तत्र धातोः शानजन्तरूपे तत्र मुघागमः भवति अथवा न भवति इति ज्ञातव्यं, नो चेत् तत्र रूपम् एव वयं न जानीमः, रूपं कथं भवति इति एव वयं न जानीमः। अतः कुत्र मुघागमः भवति अपि कुत्र मुघागमः न भवति इति अस्माभिः ज्ञातव्यः। समीचीनं भगिनी, हा अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आम् महोदय. शत्रन्ते स्त्रीलिङ्गे कुत्र नकारः नुं करणीयः कुत्र न करणीयः इति निर्णयार्थं भवन्तः वर्तमानकालक्रियापदस्य प्रथमपुरुषैक एकवचनस्य रूपे ति प्रत्ययः पूर्वं कः स्वरः
ति प्रत्ययतः खलु
ति प्रत्ययतः पूर्वं कः स्वरः अस्ति इति दृष्टवन्तः खलु. तथैव शानजन्तरूपे मकार मुगाम मुगागम विषये अपि कम्पते वर्धते क्रीणीते इत्यादिषु अन्ते ते दृश्यते ते दृश्यते. तेतः पूर्वं यदि ह्रस्वः अकारः स्यात् तर्हि शानजन्तरूपे मकारः इत्युक्ते मुक् योजनीयः. ह्रस्व अकारभिन्नः अन्यः कोऽपि स्वरः स्यात् चेत् मकारः मुक् न योजनीयः. एषः मार्गः आश्रितः चेत् कुत्रापि दोषः न भवति. उदाहरणं पठनीयं वा महोदय?
एकवारं वदतु तत्र किं गतं भवत्या इति खलु.
शानजन्तरूपे कम्पते वर्धते क्रीणीते इति धातु स्वीकुर्मः चेत् अन्ते ते दृश्यते. कम्पते वर्धते क्रीणीते इति तेतः पूर्वं यदि ह्रस्व अकारः अस्ति चेत् मुक् मकारः इत्युक्ते मुक् योजनीयः. कम्प योगः अयोगः आन इति ह्रस्व अकारः अस्ति चेत् मुक् योजनीयः. यदि ह्रस्व अकार भिन्नः अन्यस्वरः अस्ति चेत् मुक् न योजनीयः इति शानजन्तप्रत्यये भवति महोदय.
अस्तु तत्र कुत्र द्रष्टव्यमस्ति?
यदि कम्पते स्वीकुर्मः चेत् कम्प
कम्प नाम नाम तत्र कम्पते इति क्रियापदस्य पुरुषः वचनं किमस्ति?
प्रथमपुरुष एकवचनम्
एकवचनं हा प्रथमपुरुष एकवचनरूपं स्वीकृ लट् लकारं स्वीकृत्य नाम कम्पते. समीचीनं. हा तर्हि कम्पते इति तत्र स्थितिः का तर्हि?
यदि कम्पते स्वीकुर्मः चेत् धातु कम्पते तेतः पूर्वम् इत्युक्ते कम्प ह्रस्व अकारः दृश्यति दृश्यति तत्र. अतः कम्प तत्र आन मुक् आगमः भवति. अनन्तरं कम्पमान इति रूपं सिद्ध्यति
भवति. अतः तत्र प्रश्नः अस्ति कम्पयोगः आनवः वा कम्पयोगः मानः? ह्रस्व अकारः अस्ति इति कृत्वा कम्पमानः. समीचीनं भगिनि. अपि तत्र अकारः ह्रस्व अकारः नास्ति चेत् केवलम् आनः इति एव भवति
भवति.
समीचीनं भगिनि. धन्यवादः. उत्तमम् अस्ति. अस्तु धन्यवादः. शुभ भगिनी नमस्कारः. सुजाता भगिनी नमस्कारः. वंशीसुधा भगिनी नमस्कारः. तत्र करपत्रं पठन्तः स्मः
एवं वा? अस्तु महोदय.
शानज् प्रति अस्य करपत्रं प्रथमे पुटे स्मः. अस्तु
शङ्का अस्ति
महोदय.
नुम् आगम एण्ड् नुड् आगम किम् अन्तर अस्ति?
तत् अन्यस्मिन् समये चिन्तयामः भगिनि.
इदानीं
विषयः एषः अस्ति अतः अस्मिन् विषये चिन्तनं भवेत्.
अस्तु अस्तु अस्तु
चिन्ता मास्तु भगिनि. अस्तु तर्हि तत्र नरेश महोदय अग्रे उदाहरणम् अपि तत्र निवेदिता भगिन्याः प्रश्नः आसीत् वा?
अत्र शत्रन्ते स्त्रीलिङ्गे किमर्थम्?
किं भगिनि शत्रन्ते
स्त्रीलिङ्गे
कुत्र अस्ति स्त्रीलिङ्गे इति?
परिच्छेदस्य द्वितीयशब्दः शत्रन्ते स्त्रीलिङ्गे.
द्वितीयपरिच्छेद प्रथम वाक्यं शत्रन्ते स्त्रीलिङ्गे कुत्र नकारः?
करणीयः यतोहि तत्र शत्रन्तरूपं शानजन्तरूपस्य विषयः नास्ति किन्तु शत्रन्तरूपं तत्र पठन् इति शत्रन्तरूपम् अस्ति खलु पठति इति पदस्य शत्रन्तरूपं पुल्लिङ्गे किम् अस्ति पठन् इति अस्ति खलु निवेदित
स्त्रीलिङ्गे
किम् अस्ति पठन्ति समीचीनम् इदानीं तत्र करोति इति किमस्ति पुल्लिङ्गे
कुर्वन्
स्त्रीलिङ्गे
कुर्वन्ति नदी समीपे
तत्र कुर्वती इति एव
कुर्वती आमाम्
इति अस्ति अतः तत्र कुत्र नकारः दृश्यते कुत्र नकारः न दृश्यते इति वार्ता अस्ति तत्र हर्षदा भगिनी अपि तत्र प्रेषितवती खलु तत्र नीलेश बोधास् महोदयस्य तत्र लिङ्क् अपि तत्र शत्रुशानज् प्रति अस्य विषये अतः तत्र नकारः कुत्र भवति कुत्र न भवति इति निर्धारणं कर्तुं तत्र नुगागमः भवति न वा इति तत्र तस्मिन् विषये नियमः अस्ति तथैव अत्र मुगागमः भवति न वा किन्तु अत्र तु सर्वत्र केवलं स्त्रीलिङ्गे न पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे सर्वत्र मुगागमः भवति अथवा न भवति इति तादृशनिर्धारं कर्तुं नियमः अपि अस्ति इति इच्छा अत्र खलु
धन्यवादः
हा नाम अत्र तत्र यथा नियमः आसीत् तथैव अत्रापि नियमः मुगागमस्य नियमः अस्ति इति वक्तुमिच्छति अपि तत्र अत्र प्रायशः तत्र रूपे प्रथमैकपुरुषवचनस्य रूपे टि अस्ति टि पूर्वं किम् अस्ति इति द्रष्टव्यम् आसीत् तथैव अत्रापि शानजन्तरूपस्य रूपे तत्र मुघागमः भवति न वा इति प्रश्ने अत्रापि प्रथमपुरुष एकवचन लट्लकाररूपं यदि पश्यामः तर्हि तेन निर्धारं कर्तुं शक्नुमः मानः इति शत्रन्तरूपं भवति वा अथवा आनः इति भवति वा इति समीचीनम्
धन्यवादः
हा अस्तु भगिनि अस्तु नरेशमहोदय अग्रे तर्हि
आं महोदय उदाहरणं पश्याम तावत् कम्पते कम्प् योग अयोग ते इत्यत्र तेतः पूर्वं ह्रस्व अकारः अस्ति अतः अत्र मकारः मुक् योजनीयः कम्पते इत्यस्य शानजन्तरूपं कम्पमानः इति एवमेव वर्धमानः वर्धते वन्दमानः वन्दते यतमानः यतते इत्यादीनि अपि अत्र दत्तमस्ति कम्पते कम्पते अस्ति तस्य विभजनं कम्प् योग अयोगते तेतः पूर्वं ह्रस्व अकारः अस्ति अतः तत्र मुगागमः भवति मकारः आगच्छति अतः कम्पते तस्य शानजन्तरूपं कम्पमानः भवति अपि च वर्धमानः अस्ति चेत् वर्धते वर्धमानः भवति वन्दते वन्दमानः भवति यतते यतमानः भवति
समीचीनं तर्हि तत्र यतते इति क्रियापदस्य किं रूपं क्रियापदस्य पुरुषः अपि वचनं वदतु यतते इति तत्र यतते इति वचनं किं यतते इति वचनं किम्
एकवचनं
पुरुषः
पुरुषः प्रथमपुरुषः
प्रथमपुरुषः अतः तर्हि तत्र नियमः अस्ति केवलं प्रथमपुरुष एकवचनरूपमेव दृष्ट्वा वयं ज्ञातुं शक्नुमः शानजन्तुरूपं कथं भवति इति खलु
आम् आम्
हा अन्येषां रूपाणां तस्य दर्शनं न आवश्यकं केवलं प्रथमपुरुष एकवचनरूपस्य एव दर्शनेन निर्धारणं कर्तुं शक्नुमः समीचीनम् अस्तु अस्तु धन्यवादः महोदय अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा
आं महोदय नमस्कारः क्रीणीते क्रीण् योगः ई योगः ते इत्यत्र ते तः पूर्वम् इकारः अस्ति ह्रस्व इकारः अस्ति
ते तः पूर्वम् इत्युक्ते
पूर्वं ते पूर्वं
ते पूर्वं यः अस्ति तत्र ते तः इति पञ्चमीतः तः तत्र बेङ्गलूरुतः इति उक्तवन्तः तत्र पञ्चमी अर्थे ते तः पूर्वम्
ईकारः अस्ति ईकारः अस्ति ह्रस्वः अकारः नास्ति अतः मकारः न योजनीयः क्रीणीते इत्यस्य शानजन्तरूपं क्रीणानः इति एवम् एव भुञ्जानः भुङ्क्ते शयानः शेते दधानः धत्ते इत्यादीनि अपि क्रीणीते प्रथमपुरुष एकवचनरूपम् अस्ति क्रीण् ते इत्यस्य पूर्वम् ईकारः दृश्यते इत्यनेन मकारः न आयाति क्रीणाः एव भवति एवम् एव भुङ्क्ते धातुः भुञ्जानः भवति शेते धातुः शयानः भवति दत्ते धातुतः दधानः भवति इत्यादीनि रूपाणि भवन्ति
तत्र किमर्थं तत्र शेते इति अत्र तत्र केवलम् आनः इति भवति
एकारः अस्ति ते पूर्वम् एकारः अस्ति
समीचीनं समीचीनम् अपि तत्र दत्ते इति तत्र किमस्ति
दत्ते ददानः आकारः अस्ति न
अतः प्रश्नः इति वा अथवा न तत्र के वर्णाः सन्ति इति एकवारं वदतु तत्र धत्ते इति पदे
दा योगः आयोगः ता योगः ते
हा तर्हि ते पूर्वं किमस्ति
तकारः अस्ति
अस्तु अतः अकारः ह्रस्व अकारः नास्ति खलु तर्हि
आम् आं महोदय
अतः एव तत्र आनः इति एव मुगागमः तत्र न भवति खलु अस्तु समीचीनं भगिनि अस्तु अस्तु समीचीनं भगिनि अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र तर्हि तत्र अशोभगिनी अग्रे पठति वा
आं महोदय वर्तमानकालस्य इति आरभ्य
सत्यं
वर्तमानकालस्य प्रथमपुरुष बहुवचनरूपं दृष्टं चेत् शानजन्तरूपस्य ऊहनं सुलभम् यथा वर्धते बहुवचने वर्धन्ते शानच् भवति वर्धमानः चिनुते इति चिन्वन्ते बहुवचने शानच् चिन्वानः कुरुते कुर्वते कुर्वाणः भुङ्क्ते भुञ्जते भुञ्जानः इति तत्र तर्हि वर्तमानकालस्य प्रथमपुरुषस्य एकवचनस्य रूपं दृष्ट्वा इदानीं पर्यन्तं पठितवन्तः. इदानीं प्रथमपुरुष बहुवचनरूपमपि स्वीकृत्य पश्यामः चेत् शानजन्तरूपं कथं भवति इति ऊहां कर्तुं शक्नुमः. वर्धते इति वर्धन्ते इति बहुवचने भवति तत्र. किन्तु तत्र मुक् आगमः किमर्थं भवति इत्युक्ते ते इत्यस्य पूर्वम् अकारः एव अस्ति एकवचने. तत्र बहुवचनं किमर्थं स्वीकृतम् एतस्य कृते इति वर्धन्ते तेन कः उपयोगः महोदय?
इति अस्तु 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 भगिनि. तर्हि तत्र अस्तु भगिनि, तर्हि तत्र एतावत् यथा भवत्या उक्तं नाम प्रथमपुरुष एकवचनरूपस्य दर्शनेन अथवा तद् दृष्टं चेत् जानीमः मुघागमः भवति न वा इति खलु. तर्हि तत्र वर्धते इति पश्यामः, वर्धते इति एकवचने, तर्हि वर्धते तत्र मुघागमः भवति न वा?
भवति, यतोहि तत्र ते पूर्वम् अकारः एव अस्ति.
अस्तु, इदानीं जानीमः मुघागमः भवति इति. मुघागमः भवति इत्युक्ते तत्र मानः इति योजनीयः वा अथवा आनः इति योजनीयः वा?
मानः, यतोहि मुख् इत्यस्य मकारः एव तिष्ठति.
मकारः भवति, समीचीनं. हा, तर्हि मानः इति भवति अन्ते, रूपस्य अन्ते. किन्तु अस्मात् प्राक् किं भवति इति न जानीमः खलु. अन्ते मानः इति भवति, किन्तु तत्र तस्मात् प्राक् किं भवति इति कथं जानीमः? अतः तत्र किं दत्तमस्ति इत्युक्ते तत्र वर्धन्ते इति बहुवचनरूपं स्वीकुर्मः, प्रथमपुरुष बहुवचनरूपं तत्र वर्धन्ते इति अस्ति खलु. तत्र अन्ते तत्र यथा वर्धते तत्र ते इति अस्ति, अन्ते इति अस्ति खलु, तदनन्तरं ते इति अस्ति खलु.
आम् महोदय.
तद् त्यक्त्वा तत्र मानः इति स्थापनीयः, नाम वर्ध मानः
इत्युक्ते तत्र ते अथवा अन्ते इत्यस्य पूर्वम् अकारः अस्ति चेत्
ते अत्र तथैव अस्ति, यथा एकवचने अस्ति तथैव बहुवचने अस्ति, किन्तु सर्वदा तादृशः नास्ति इति अग्रिमे उदाहरणे दत्तमस्ति. द्वितीय उदाहरणं पश्यतु.
अस्तु,
तत्र
चिनुते इति तत्र
तद्दृष्ट्वा किम् अवगच्छामः, चिनुते इत्र तत्र मुगागमः भवति न वा? न भवति,
न भवति, यतोहि तत्र उकारः अस्ति.
उकारः, तर्हि आनः इति एव योजनीयः खलु.
सत्यं.
तर्हि तत्र चिनुते तत्र ते निष्कास्य आनः इति न करणीयः, किन्तु बहुवचनरूपं स्वीकृत्य, बहुवचनरूपं किम् अस्ति, चिन्वते.
हा, तत्र अवगतं महोदय. तत्र वकारः आगच्छति सर्वत्र.
अतः तत्र नियमः अस्ति सर्वदा बहुवचनरूपं स्वीकरोतु इति. कुत्रचित् एकवचनरूपं बहुवचनरूपं साम्यम् अस्ति चेत् तत्र एकवचनरूपं स्वीकरोमि इति न.
अस्तु, तत्र तदेव मम संशयः आसीत्. प्रथमे उदाहरणे आवश्यकं नास्ति तस्य इति.
तत्र अन्यानि उदाहरणं दृष्ट्वा तत्र अवगच्छामः, नाम सर्वदा बहुवचनरूपमेव स्वीकरणीयम् इति.
आम्, नो चेत् तत्र वा किं वानः इति भवति इति न जानीमः.
सत्यं भगिनि, अतः तत्र रूपं सुलभतया कर्तुं शक्नुमः, दोषः न भवति इति. अतः तत्र तर्हि तृतीय उदाहरणं स्वीकृत्य सोपानेन वदतु, तत्र एकवचनरूपं स्वीकृत्य वयं तत्र जानीमः, तदनन्तरं बहुवचनरूपं किम् अस्ति, तत्र किं त्यजामः, निष्कासयामः, किं योजयामः, अन्ते किं रूपं भवति इति.
आं महोदय, तत्र कुरुते इति प्रथमवर्षे एकवचने, कुरु इति धातोः लट्लकाररूपं कुरुते इति ते तेतः पूर्वम् उकारः अस्ति अतः तेन जानीमः तत्र मुखागमः न भवति इति तर्हि तत्र आना इति भवति किन्तु अधुना केवलम् आना इति भवति वा अथवा तत्र वकारः अपि च अथवा किमपि अन्यत् आगच्छति वा इति ज्ञातुं बहुवचनरूपं स्वीकरणीयं कुर्वते कुर्वते इति भवति तत्र वकारः ते पूर्व ते इत्यस्य पूर्वम् अकारस्य पूर्वं तत्र वकारः अपि अस्ति यत् एकवचने न आसीत्
तत्र किम् अस्ति नाम तत्र अन्तिम तत्र अन्ते अथवा ते यत् किमपि अस्ति बहुवचनरूपम्
अते अन्ते इति
अन्ते यदस्ति त्यक्त्वा
तत्र
स्थापनीयः इति
अग्रे ते इति त्यक्त्वा अथवा अन्ते बहुवचने अन्ते तत्र कुर्वते इति अन्ते इति नास्ति तत्र
अते अते अस्ति
अन्ते इति नास्ति अन्ते अस्ति चेत् तदपि त्यक्तव्यं ते एव अस्ति चेत् केवलं ते एव त्यक्तव्यं
न भगिनि अते 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 अस्ति न अते बहुवचने
न मम
अते इति भगिनि तत्र अते इति न त्यक्तव्यं खलु नाम यदि अते इति त्यजति चेत् तत्र कुर्वयोगः तदपि वक्तुं शक्नुमः अस्तु यत्किमपि अस्तु अन्ते अते अथवा अन्ते अथवा केवलं ते तदपि समी हा यतोहि आनः इति अस्ति दीर्घकारः अस्ति
अतः तत्र कुर्वा अपि च आन कुर्वान इति भवति यतोहि तत्र रेपः अस्ति नत्वस्य प्रसङ्गम् अस्ति अतः कुर्वा कुर् रेफस्य अनन्तरं वकारः अकारः बाधकवर्णः वर्णो नास्तः अतः कुर्वाणः इति अन्तिमरूपं भवति
समीचीनं भगिनि हा अतः तत्र कुर्वाणः इति भवति समीचीनम् अतः
महोदय
एतेन उदाहरणेन वयं णत्वस्य णत्वं भवति न वा इति अपि तत्र विषयः अस्ति इति जानीमः अस्तु समीचीनं हर्षदभगिनी प्रश्नः
महोदय महोदय अते वा अन्ते न त्यक्तव्यं यदि वयम् अन्ते त्यजामः चेत् वर्धमान कथं भवति केवलं नकार ते त्यक्तुं शक्यं चिन्वते तत् कुर्वते तत्र केवलं ते त्यक्तव्यं कुर्व अधिक आनः सन्धि भूत्वा कुर्वाणः एव भविष्यति
समीचीनं हा समीचीनं भगिनि नाम तत्र चिन्व तत्र चिन्व वकारः तदनन्तरम् अति यदि त्यजामश्चेत् अपि चिन्वानः इति भवति किन्तु यथा भवत्या उक्तं तत्र वर्धन्ते इति तत्र वर्ध योगः अन्ते इति स्वीकृत्य अन्ते इति त्यजामश्चेत् तत्र वर्धमानः इति एव भवेत् वेदाभगिनी समीचीनं वा तर्हि हर्षदभगिनी उत्तमं हा उत्तमं
धन्यवादः
अतः तत्र केवलं ते अथवा नकारः योगः ते तदेव त्यक्तं
महोदय तत्र शप् अपि आगच्छति वा इति शप् इत्यस्य अकारः अस्ति इति मन्ये
प्रायशः भगिनि
तस्य अकारः आगच्छति इति
शप् इत्यत्र अकार आयाति
वर्धयोगः शप् इत्यस्य अकारः मुख् इत्यस्य मकारः तदनन्तरम् आना इति ल्युट् इत्यस्य आना इति भवति तत्र
तदेव
अन्ते अते इति त्यक्तामः इति
त्यक्तव्यं तत्र अन्ते अते इति
किमर्थं चेत् शप् इति आयाति तत्र
अस्तु
महोदय महोदय मम दृश्यजनाः ये पाणिनीयं व्याकरणं न जानन्ति तेषां कृते तु मम
यत् भवति
मार्ग एव सम्यक् खलु
तदेव
तदेव
तदेव अहमपि तत्र अनुसरामि वर्गे
एतत् पुस्तकं तु मम कृते अस्ति महोदय बाकी सर्वे तु पाणिनीयं ग्रामं जानन् जानन्ति
ते अधिकतया तत्र कर्तुं शक्नुवन्ति सत्यं किन्तु सरलमार्गं स्वीकुर्मः वयं तर्हि अतः तत्र ते त्यजामः अथवा नकारः ते इत्यपि त्यजामः आनः वा मानः इति योजयामः शानज्रूपं प्राप्नुमः तर्हि अस्तु इदानीम् अग्रे सरामः तर्हि तत्र समीचीनमस्ति अतः तत्र इदानीं तत्र अभ्यासः कर्तुं वयं सर्वे सिद्धाः इति मन्ये तर्हि तत्र हा हर्षदा भगिनी तत्र आरम्भं करोति वा
आं महोदय अधो निर्दिष्टानां क्रियापदानां बहुवचनरूपाणि एकवचने तेतः पूर्वकः स्वरः अस्ति इति शानजन्तरूपाणि च लिखत क्रियापदं बहुवचनम् एकवचने तेतः पूर्वं कः स्वरः शानजन्तरूपं पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गम् उदाहरणार्थ वन्दते वन्दन्ते ह्रस्वः अकारः वन्दमानः वन्दमाना वन्दमानम् कम्पते कम्पन्ते एकवचने तेतः पूर्वं ह्रस्व अकारः कम्पमानः कम्पमाना कम्पमानम् अधीते बहुवचनम् अधीयते एकवचने तेतः पूर्वं कः स्वरः ईकारः शानजन्तरूपम् अधीयानः अधीयाना अधीयानम्
हा समीचीनं भगिनि हा तर्हि अधि तत्र अधीयते इति भवति बहुवचने अधीयते तर्हि
दीर्घ
अधीते इति दृष्ट्वा किं वयं जानीमः अधीते इति एकवचनरूपं दृष्ट्वा
कः स्वरः अस्ति ते प्रत्ययस्य पूर्वतः वयं ज्ञातुं शक्नुमः
हा तर्हि अधीते तत्र केवलं तत्र मुगागमः भवति न भवति इति वदतु तर्हि
तत्र मुगागमः न भवति
न भवति
यतः ते प्रत्ययस्य पूर्व दीर्घ इकारः अस्ति अतः मुगागमः न भवति परन्तु अधीयते इति बहुवचनरूपम् अस्ति अतः तत्र रूपम् अधीयानः इति भवति ते त्यक्तव्यम् अधीय इधिक आनः अधीयानः अधीयाना अधीयानम्
इति भवति समीचीनं भगिनि हा उत्तममस्ति अस्तु अग्रे निवेदिता भगिनि अग्रे
आम् आम् युध्यते बहुवचनं युध्यन्ते एकवचने तेतः पूर्वकः स्वरः ह्रस्वस्वरः
अकारः
शान अकारः शानजन्तरूपं किं युध्यमानः युध्यमाना युध्यमानम् इति अस्ति
हा समीचीनं भगिनि अस्तु अग्रिमम् अपि करोतु
वर्धते बहुवचनं वर्धन्ते एकवचने तेतः पूर्वकः स्वरः ह्रस्वस्वरः अकारः अत एव शानजन्तरूपं वर्धमानः वर्धमाना वर्धमानम्
इति भवति समीचीनं हा उत्तमं भगिनि अस्तु तत्र अग्रे धन्यवादः भगिनि तत्र वेदा भगिनी अग्रे कर्तुं शक्नोति वा
आं महोदय चिनुते तस्य बहुवचनरूपम् अस्ति चिन्वन्ते चिन्वन्ते अस्ति
चिन्वन्ते इति नास्ति चिन्वन्ते नास्ति खलु भगिनि
चिन्वते या चिनुते
भवती जानाति
चिनुते
भवती अहं तत्र विश्वासेन वदामि भवती जानाति इति कथं
चिन्वते चिनुते चिन्वते चिन्वन्ते
यतोहि एतावत् तत्र वर्गे तत्र शोभा भगिनी पठितवती भवती
चिन्वते अस्तु अस्तु महोदय क्षम्यता चिन्वते चिन्वते चिन्वन्ते नास्ति चिनुते चिन्वते चिन्वते तत्र ते पूर्वम् उकारः ह्रस्व उकारः अस्ति तदेव तत्र मुक् आगमः न भवति चिन्वते अत्र ते त्यज्य ते स्थाने आनः इति युज्यन्ते चिन्वानः इति चिन्वानः चिन्वाना चिन्वानम् आद्रियते आद्रियते तत्र आद्रियते आद्रियन्ते तत्र आद्रियते आद्रियन्ते आद्रियन्ते तत्र ते पूर्वम् अकारः ह्रस्व अकारः अस्ति तदेव तत्र मुगागमः भवति तत्र आद्रियमानः आद्रियमानः इति मानः
आद्रियमानः
रेफः अस्ति खलु भगिनि आद्रीय
आद्रीय
तदनन्तरम्
आद्रियमानः
रेपः अस्ति चेत् कस्मिन् विषये तत्र अवधानं भवेत् रेपः अस्ति चेत् तत्र किं किं भवितुम् अर्हति रेपः अस्ति चेत्
रेपस्थानकारः
न रेपः अस्ति चेत् नकारः अपि अस्ति चेत् किं भवति
ओ रेपनकारयोजनयो वा ओ ओ ओके ओके हा 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 णत्वम् आद्रियमाणम्
उत्तमम्
आद्रियमाणः
तर्हि रूपत्रयं वदतु आद्रियमाणः
आद्रियमाणा आद्रियमाणम्
इति भवति समीचीनं भगिनि हा अस्तु उत्तमम् अग्रे तत्र वंशीसुतभगिनि वक्तुं शक्नोति वा
आं महोदय वदामि म्रियते अस्ति म्रियते म्रियते म्रियन्ते भवति चिन्तयामि म्रियन्ते अतः तत्र ते इत्यस्मात् पूर्वं म्रियते ह्रस्वकारः अस्ति अतः तत्र मुगागमः भवति म्रियमाणः इति भवति म्रियमाणः म्रियमाणा म्रियमाणम् इति भवति
म्रियमाणं हा समीचीनं भगिनि
नत्वम् अस्ति म्रियमाणः म्रियमाणा म्रियमाणं नत्वम्
समीचीनं भगिनि हा अस्तु अग्रे
अग्रे अपि करोमि वा महोदय भुङ्क्ते भुङ्क्ते भुञ्जाते भुञ्जते इति भुङ्क्ते भुञ्जाते भुञ्जते इति भवति इति चिन्तयामि
सत्यं भगिनि भुञ्जते इति उपरि अपि दत्तं खलु
सत्यं भुञ्जते इति अस्ति तत्र तु भुङ्क्ते इत्यस्मिन् तत्र पूर्वम् एकारः अस्ति तस्मात् कारणात् तत्र मुखागमः न भवति आना एव भवति अतः तत्र भुञ्जानः भुञ्जानः भुञ्जाना भुञ्जानम् इति भवति
समीचीनं भगिनि हा अस्तु तथैव अस्ति अस्तु अग्रे तत्र उषा भगिनी अग्रे
आं महोदय प्रयुङ्क्ते इति क्रियापदं वर्तमानकाले एकवचनरूपमस्ति बहुवचने प्रयुञ्जते इति भवति प्रयुङ्क्ते ते एकारः दृश्यते अतः मान इति न भवति आन इति
किं किं किम् अस्ति प्रयुङ्क्ते तत्र किं
प्रयुङ्क्ते ककारः अस्ति
एकारः इति
उक्तवती ककारः
अस्तु अस्तु अस्तु
ककारः अस्ति अतः मान इति मुक् आगमः न भवति आन इति एव भवति अतः भुञ्जेते इति बहु
भुञ्जेते किमर्थं भुञ्जेते प्रयुङ्क्ते इति अस्ति खलु प्रयुङ्क्ते इति क्रियापदं खलु
प्रयुङ्क्ते क्षम्यतां प्रयुञ्जते प्रयुञ्जते इति बहुवचनमस्ति अतः प्रयुञ्ज अते त्यक्त्वा आन इति योजनीयमः चेत् प्रयुञ्जानः प्रयुञ्जाना प्रयुञ्जानम् इति रूपं भवति
तत्र प्रयुञ्जानः वा णत्वं भवति अथवा न भवति
न भवति न महोदय प्रयुञ्जा
किमर्थम्
बाधकवर्णः अस्ति तत्र
किं कः वर्णः
ज
जकारः अस्ति तकारः
तकारः प्रयुञ्जान्
माणः इति समीचीनं प्रयुञ्ज जकारः ते इति नास्ति खलु प्रयुञ्जमानः तत्र जकारः अस्ति तर्हि बाधकवर्णः अस्ति समीचीनम् अस्तु अग्रे
अग्रे कुरुते इति क्रियापदं प्रथमपुरुष एकवचने बहुवचने कुर्वते इति भवति इति मन्ये महोदय कुरुते कुर्वते
भवती जानाति यतोहि पूर्वम् उक्तं खलु
कुर्वते कुरुते इत्यत्र कुरु ते ते पूर्वम् उकारः दृश्यते अतः मुगागमः न भवति आम एव भवति तत्र यदि बहुवचनं स्वीकुर्मः चेत् कुर्वते कुर्वा रेफः अस्ति तत्र अतः नत्वं भवति नत्वं भूत्वा कुर्वाणः इति भवति कुर्वाणः कुर्वाणा कुर्वाणम् इति रूपं सिद्ध्यति
समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे नरेश महोदय
अत्र तनुते तनुते बहुवचनं तन्वते एकवचने ते पूर्वम् उकारः अस्ति ह्रस्व अकारः नास्ति अतः अत्र तन्वानः भवति शानजन्तरूपं तन्वानः
तन्वानः तन्वानः
तन्वानः अग्रे क्रीणीते क्रीणीते बहुवचनम् अस्ति क्रीणन्ते अपि च एकवचने ते पूर्वम् ईकारः अस्ति ह्रस्व अकारः नास्ति अतः अत्र किं भवति मुगागमः तु न भवति क्रीणानः क्रीणा
समीचीनं क्रीणानः इति पूर्वम् उदाहरणम् उक्तं खलु
आम् आं क्रीणानः भवति
क्रीणानः इति समीचीनं महोदय अतः तत्र क्रीणान क्रीणानः क्रीणाना क्रीणानम् इति समीचीनं महोदय अस्तु अग्रे तत्र सुजाता भगिनी अग्रे करोति वा
आं महोदय गृह्णीते ते पूर्वम् ईकारः अस्ति बहुवचनरूपमस्ति गृह्णन्ते भवति
क्रीणीते क्रीणीते इति अस्ति ओ क्रीणीते इति कृतम् अस्तु अस्तु सत्यं
गृह्णन्ते
गृह्णीते गृह्णते इति भवति भगिनि
गृह्णते भवति गृह्णते भवति मुगागम न भवति गृह्णानः गृह्णानं भवति
हा इति समीचीनं हा तथैव इदानीं तत्र जानीते
जानीते ते पूर्वम् ईकारः अस्ति जानते बहुरूपं बहुवचनरूपम् अस्ति
यथा गृह्णीते आसीत् तथैव
जानीते जानानः जानाना जानान्
तथैव अस्ति समीचीनं समीचीनम् अस्तु अन्तिमं करोतु
प्रार्थयते प्रार्थयते अकारः अस्ति ते पूर्वं प्रार्थयमानः प्रार्थयमाना प्रार्थयमानं भवति
तकारः तकारः भगिनि प्रार्थय प्रार्थयते
प्रार्थयते क्षम्यतां
चिन्ता मास्तु प्रार्थयन्ते बहुवचने अतः प्रार्थय
मानः प्रार्थयमानम्
इति भवति समीचीनं भगिनि हा अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे तत्र निवेदिता भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा तस्य आरम्भ
आम् आवरणे दत्तानां क्रियापदानां शानजन्तरूपैः रिक्तस्थानानि पूरयन्तु सः ऐश्वर्यं प्राप्तवान् वर्धते वर्धमानः सः ऐश्वर्यं प्राप्तवान्
तर्हि तत्र वर्धमानः कः अस्ति तत्र
अकारः ते पूर्व अकारः अस्ति
वर्धमानः इति रूपं समीचीनं किन्तु वाक्ये
सः प्रथमा एकवचनम् अस्ति प्रथमा एकवचनं पुल्लिङ्गं
तस्य विशेषणम् अस्ति वर्धमानः
वर्धमानः
सः कीदृशः सः वर्धमानः अस्ति तादृशः सः ऐश्वर्यं प्राप्तवान् समीचीनम् अस्तु अग्रे
सः वरं प्राप्तवान् वन्दते वन्दमानः सः वरं प्राप्तवान् सः पुल्लिङ्गम् अस्ति अतः वन्दमानः प्रथमा एकवचनं
समीचीनं भगिनि अतः वन्दमानः सः वरं प्राप्तवान् समीचीनम् अस्तु अग्रे तत्र हर्षदा भगिनी अग्रिमम्
आम् सा धनं स्मृतवती स्मृतवती क्रीणीते क्रीणमाना सा धनं स्मृतवती
किं किं किं
सारि क्रीणाना सा धनं स्मृतवती तत्र सा
समीचीनम् अस्तु उत्तमं
तत्र सा इति स्त्रीलिङ्गे अस्ति अतः क्रीणाना इति स्त्रीलिङ्गे अस्ति
स्त्रीलिङ्गे अस्ति समीचीनम् उत्तमं भगिनि अस्तु अग्रे तत्र शोभा भगिनि अग्रे
हा तत्र अतिथिः तृप्तिं प्रकटितवान् भुङ्क्ते इति भुङ्क्ते तत् इत्यस्य मुखागमः न भवति भुञ्जानः इति भवति तत्र अतिथिः तृप्तिं प्रकटितवान् भुञ्जानः अतिथिः तृप्तिं प्रकटितवान् इति भवति
हा समीचीनं भगिनि भुञ्जानः अतिथिः
तृप्तिं
प्रकटितवान् समीचीनम् अस्तु वेदा भगिनि अग्रे अस्तु उषा भगिनि
आं महोदय म्यूट् मध्ये अस्मि
ओ अस्तु अस्तु अस्तु
प्रकाशते नक्षत्रं भूमौ पतितं तत्र प्रकाशते तस्य प्रकाशमानं नक्षत्रं भूमौ पतितम् इति
प्रकाशमानं नक्षत्रं भूमौ पतितं समीचीनं भगिनि अस्तु अग्रे उषा भगिनि
अध्यापकः सन्तोषं प्राप्तवान् परीक्षते इति क्रियापदं तत्र ते पूर्वम् अकारः दृश्यते ह्रस्व अकारः अतः आन इति परीक्षा मान इति रूपं भवति अपि च तत्र रेफ ककारः षकारः अस्ति नत्वं भवति अतः परीक्षमाणः अध्यापकः सन्तोषं प्राप्तवान् अध्यापकः
समीचीनं भगिनि परीक्षमाणः अध्यापकः
सन्तोषं प्राप्तवान्
समीचीनम् अस्ति भगिनि अस्तु अग्रे वंशीसुधा भगिनि
महोदय तत्र बालिका स्वप्नं दृष्टवती श्रूयते वा शेते इति अस्ति बालिका स्वप्नं दृष्टवती शेते शेते शयते शयन्ते इति भवति चिन्तय शेते शयति शेते इत्यस्मिन् तकारः पूर्वम् एकारः अस्ति अतः तत्र मुखागमः न भवति अतः तत्र शेते शयते शयन्ते इति अस्ति शय शयानः इति भवति शययोगः आनः शयानः शयाना बालिका शयाना बालिका स्वप्नं दृष्टवती आकाश श्रीलिङ्गे अस्ति शयाना बालिका
समीचीनं भगिनि समीचीनं शयाना बालिका स्वप्नं दृष्टवती
दृष्टोत्तमं
समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
आं महोदय अग्रे अस्ति कन्या मौनम् आश्रितवती लज्जते लज्जते अत्र तु मुगागमः भवति लज्जते लज्जमानः लज्जमाना लज्जम् अत्र स्त्रीलिङ्ग अस्ति कन्या लज्जमाना कन्या मौनम् आश्रितवती
लज्जमाना कन्या मौनम् आश्रितवती आश्रितवती इत्युक्ते किम् अस्ति मौनम् आश्रितवती इत्युक्ते
मौनं सा न अवदत्
हा नाम तत्र मौनम् आश्रितवती नाम मौनस्थितिं प्राप्तवती नाम अहं न वदामि इति चिन्तितवती नाम तत्र आश्रितवती नाम तत्र गतवती मौन इति स्थानम् आश्रितवती अतः मौनम् आश्रितवती अतः तत्र समीचीनं रूपमस्ति खलु महोदय नाम मौनम् आश्रितवती इति
आश्रितवती
उपयोगकरम् अस्ति यदि अन्यस्मिन् सन्दर्भे तत् वक्तुम् इच्छामः अस्तु अस्तु मौनम् आश्रितवान् इति
सत्यं
हा समीचीनम् अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे अग्रिमे पुटे निवेदिता भगिनी
आम् आम्
अष्टमः
सैनिकः शत्रु प्रहृतवान् युध्यते युध्यमानः सैनिकः शत्रु प्रहृतवान्
तत्र प्रायशः शत्रुम् इति भवति वा अथवा तत्र शत्रु इति कीदृशपदमस्ति कोऽपि जानाति वा
न शत्रुं प्रहृतवान्
भवेत् खलु तत्र शत्रु गुरुशब्दमस्ति खलु कर्मपदमस्ति खलु तर्हि तत्र किं किमर्थं शत्रु इति दत्तमस्ति
मुद्रदोषणमस्ति महोदय
केवलं मुद्रणदोष इति मन्ये अस्तु इति चिन्तयामि अस्तु हा शत्रुः इति एव अस्ति खलु हा अस्तु अस्तु शत्रुं प्रहृतवान् प्रहृतवान् समीचीनं भगिनि अस्तु अग्रे तत्र सुजाता भगिनी
आं महोदय चोरः आरक्षकैः गृहीतः पलायते ते पूर्वम् अकारः अस्ति पलायमानः चोरः आरक्षकैः गृहीतः
पलायमानः चोरः आरक्षकैः गृहीतः समीचीनम् अस्तु समीचीनमस्ति भगिनि अस्तु तर्हि तत्र अग्रे हर्षदा भगिनी अग्रे
आं महोदय फलं बालकः गृहीतवान् लम्बते लम्बमानं फलं बालकः गृहीतवान्
हा समीचीनं लम्बमानं फलं बालकः गृहीतवान् समीचीनं शोभा भगिनी अग्रे
कण्टकं सः अपनीतवान् बाधते इति पदं तत्र कण्टकं बाधमान बाधते तत्र ते तः अकारः दृश्यते अतः मुगागमः भवति बाधमाना बाधमानः बाधमाना बाधमानम् इति भवति कण्टकम् इति अस्ति अतः बाधमानं कण्टकं सः अपनीतवान् इति भवति महोदय
बाधमानं कण्टकं सः अपनीतवान् समीचीनं भगिनि सः अपनीतवान् अस्तु समीचीनम् अस्तु अग्रे वेदा भगिनी अग्रे
महोदय कष्टानि सा कष्टेन जीवति कष्टानि सहते सा इत्युक्ते सहते अकार अस्ति ह्रस्व अकार मान सहमाना सा कष्टानि सहमाना सा कष्टेन जीवति.
समीचीनं. तर्हि तत्र का जीवति?
सा
जीवति. कीदृशी सा? कीदृशी?
सहमाना सा.
हा, तर्हि इदानीं कष्टानि इति पदस्य अन्वयः कुत्र अस्ति?
कष्टानि किमर्थं जीवति? कष्टानि जीवति.
जीवति इति
एकवान् कष्टानि सहमाना सा कष्टेन जीवति. कष्टानि सहमाना सा.
नाम सा कष्टानि सहते.
सहमाना. आम्,
सा कष्टानि सहते नाम सा कष्टानि सहमाना अस्ति. तादृशी सा कष्टेन
जीवति.
अतः कष्टानि इति कर्मपदमस्ति, सहमाना इति क्रियासूचकपदस्य. समीचीनं भगिनि. अस्तु, अग्रे उषा भगिनि.
नूतनवस्त्रेण पुत्री गर्वेण गृहे सञ्चरति, क्रियापदमस्ति शोभते, तेतः पूर्वम् अकारः दृश्यते, अतः मुगागमः भवति. पुत्री स्त्रीलिङ्गे अस्ति, अतः नूतनवस्त्रेण शोभमाना पुत्री गर्वेण गृहे सञ्चरति इति भवति महोदय.
हा, नूतनवस्त्रेण
शोभमाना
पुत्री
गर्वेण
सञ्चरति गृहे सञ्चरति. समीचीनं भगिनि. हा, तथैव अस्ति. अस्तु, अग्रे वंशिष्यता भगिनि.
आं महोदय, तत्र विक्रीणिते इति विक्रीणीते इति शब्दः अस्ति.
सत्यं.
शाकविक्रयिका तत्र गता. अस्तु, विक्रयिका विक्रीणीते इति अस्ति. ते विक्रीणीते विक्री तत्र द्वितीय द्विवचनं विक्रीणीते किं भवति? क्रीणीते क्रीणन्ते इति भवति तत्र बहुवचनरूपं. परन्तु ते इत्यस्मात् पूर्वं नी ईकारः अस्ति, अतः मुखागमः न भवति. विक्रीणाः भवति वा? तत्र विक्रीणाः भवति.
उदाहरणं पूर्वं दत्तमासीत् भगिनि, नाम क्रीणानः इति भवति.
क्रीणानः क्रीणाना इति भवति. क्रीणान विक्रीणान शाकविक्र विक्रयिका तत्र गता. स्त्रीलिङ्गे अस्ति, शाकविक्रयिका इति स्त्रीलिङ्गे अस्ति. अतः तत्र समीचीनं.
हा, विक्रीणान शाकविक्रयिका तत्र गता इत्युक्ते किम् अर्थः कः?
तत्र शाकविक्रयिका इत्युक्ते तत्र वेजिटेबल् सेलर्, सा वेजिटेबल्
सेलर् विक्रयणं या
करोति,
विक्रयिका सा शाकविक्रयिका
तत्र गता. तत्र विशेषणमस्ति, विक्रीणान इति विशेषणमस्ति. शाकविक्रयिका इत्यस्य सा विक्रेति इत्युक्ते तत्र सा सेल्लिङ्ग् इति अर्थे भवति किल तत्र
सा खलु
सा अस्ति महोदय.
किन्तु तत्र अर्थः कः नाम शाकविक्रयिका विक्रीणीते खलु?
अस्तु,
एव विक्रीणीते खलु. विक्रीणीते सा विक्रीणीते अपि सा तत्र गता अस्ति. अतः विक्रीणाना शाकविक्रयिका तत्र गता खलु? नाम षट्त्वशत्रन्त तत्र क्रियाद्वयम् एकस्मिन् समये भवति इति एव अर्थः खलु? नाम अतः
परन्तु तत्र एकः विशेषणं भवति यदा तु शानचन्द्ररूपं भवति.
अत्र तु किं क्रियाद्वयमपि विशेषणत्वेन एव उक्तं खलु?
सत्यं महोदय, उत्तमं.
अतः समीचीनम्. अस्तु, अग्रे सुजाता भगिनी. हा, धन्यवादः भगिनि. अस्तु, तत्र सुजाता भगिनी कृतवती वा भवती इदानीं तत्र?
एकवारं कृतवती.
अस्तु,
करोतु भगिनि. मोदन्ते बालकाः क्रीडितुं गतवन्तः. मोदन्ते अस्ति मोदते इति लट्लकाररूपं भवति मोदमानः मोदमानाः बालकाः क्रीडितुं गतवन्तः
हा समीचीनं भगिनी मोदमानाः बालकाः क्रीडितुं
गतवन्तः
इति अस्ति समीचीनम् अस्तु अग्रे धन्यवादः भगिनि नरेश महोदय अग्रे
अत्र अग्रे अस्ति वृक्षाः नितरां दुर्बलाः सन्ति कम्पन्ते कम्पन्ते तस्य शनजन्तरूपं कम्पमानः अस्ति बहुवचने कम्पमानाः कम्पमानाः वृक्षाः नितरां दुर्बलाः सन्ति
कम्पमानाः समीचीनं समीचीनं महोदय अस्तु अग्रे हर्षिता भगिनी
आं महोदय भिक्षुकाः दैन्यं प्रदर्शयन्ति याचन्ते याचमानाः भिक्षुकाः दैन्यं प्रदर्शयन्ति
हा समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे शुभ भगिनि
भवन्तः हानिं प्राप्नुवन्ति त्वरन्ते इति क्रियापदं त्वरते इति भवति एकवचने त्वरते तेतः पूर्वम् अकारः मुगागमः भवति तत्र त्वरं तत्र भवन्तः इति पुंलिङ्गे बहुवचने त्वरमाणः इति भवति तत्र णत्वस्य प्रसङ्गम् अस्ति त्वर रेपस्य अनन्तरम् अकारः अपि च मकारः अकारः बाधकवर्णाः न सन्ति त्वरमाणः इत्युक्ते तत्र त्वरमाणाः भवन्तः हानिं प्राप्नुवन्ति इति भवति
हा समीचीनं भगिनि हा त्वरमाणाः भवन्तः हानिं प्राप्नुवन्ति समीचीनं हा उत्तमम् अस्तु अग्रे निवेदिता भगिनि अग्रे
आम् प्रयते हा जनाः फलं प्राप्नुवन्ति प्रयतमानाः जनाः फलं प्राप्नुवन्ति समीचीनमस्ति वा
समीचीनं समीचीनं भगिनि प्रयतमानाः जनाः फलं प्राप्नुवन्ति प्रयत्नं विना किं भवति खलु प्रयतमानाः जनाः फलं प्राप्नुवन्ति समीचीनं भगिनि हा अस्तु अग्रे वेदा भगिनि
वानराः कीच् कुर्वन्ति उत्प्लवन्ते वानराः कीच् कुर्वन्ति तत्र उत्प्लवन्ते तस्य उत्प्लवते ते पूर्वम् अकारः ह्रस्व अकारः अस्ति तदेव तत्र मुक् आगमः भवति उत्प्लवमानाः वानराः कीच् कुर्वन्ति उत्प्लवमानाः वानराः कीच् कुर्वन्ति
उत्प्लवमानाः इत्युक्ते किम् इति जानाति वा
जम्पिङ्ग्
हा नाम गत्यर्थे सत्यं तदेव अस्ति हा इतः तत्र तत्र वृक्षे इतः तत्र ततः गच्छन्ति हा नाम
जम्पिङ्ग्
कीच् अपि कुर्वन्ति इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे उषा भगिनि
आं महोदय विशेष्यानुगुण तया शानजन्तरूपं प्रयुज्य वाक्यानि लिखन्तु उदाहरणमस्ति भक्तः वन्दते तं देवः अनुगृह्णाति वन्दते तत्र ह्रस्व अकारः दृश्यते अतः मुगागमः आगच्छति वन्दते वन्दमानं भक्तं देवः अनुगृह्णाति उदाहरणमस्ति अधुना भिक्षुकः धनं प्रार्थयते तं धनिकः निन्दितवान् भिक्षुकः धनं प्रार्थयते ते पूर्वम् अकारः दृश्यते अतः मुगागमः भवति भिक्षुकः धनं प्राप्तयमानं भिक्षुकं प्राप्यमानं भिक्षुकं भिक्षुकं धनिकः निन्दि भिक्षुकं धनिकः निन्दितवान्।
पुनः वदतु भगिनि।
प्राप्यमानं भिक्षुकं धनं प्राप्यमानं भिक्षुकं तम् इति प्रयोजनं करणीयं महोदय। तत्र तं धनिकः निन्दितवान्।
भवती चिन्तयतु, वदतु।
प्राप्यमानं भिक्षुकं धनिकः निन्दितवान्
इति यावत् उक्तवती तत् समीचीनमस्ति, किन्तु किञ्चित् अधिकं तत्र वाक्ये भवेत्। नाम अतः तत्र भवती किं कृतवती? तम् इति स्थाने किं स्थापितवती?
किं महोदय?
तम् इति स्थाने किं स्थापितवती भवती?
प्रार्थयमानं भिक्षुकं तम्
इति स्थापितवती।
प्रार्थयमानं भिक्षुकं,
किन्तु प्रथमवाक्यं स्वीकरोतु भगिनि। प्रथमवाक्यं किम् अस्ति?
भिक्षुकः धनं प्राप्तयते।
अतः सोपानेन गच्छतु तर्हि। प्रथमसोपानम् अस्ति, तत्र यत्र क्रियापदम् अस्ति तत्र शानजन्तरूपं स्थापयित्वा अस्ति इति साक्षात् क्रियापदं योजयित्वा वदतु तर्हि तत्र किम् अस्ति?
भिक्षुकः धनं प्राप्तयते, प्राप्यमानम् अस्ति।
न न कथं प्रार्थ्यमानम्?
प्राप्यमानं भिक्षुक
न न न भगिनि, केवलं प्रथमवाक्यं इति इदानीं स्वीकरोतु। अस्तु, द्वितीयवाक्यं मास्तु।
अस्तु,
प्रथमवाक्यं किमस्ति?
भिक्षुकः धनं प्राप्तयति।
चन्द्रः शोभते इति तत्र शानजन्तरूपं वयं पूर्वम् उक्तवन्तः खलु गीताशोभने पुस्तके। किम् आसीत् वाक्यं?
चन्द्रः शोभमानः अस्ति।
अस्ति खलु, चन्द्रः शोभमानः अस्ति खलु। अत्र भिक्षुकः धनं प्रार्थयते, इदानीं वदतु तादृशरूपम् अत्र।
भिक्षुकः धनं प्राप्यमानम् अस्ति।
किमर्थं प्रार्थयमानं?
शानजन्तरूपं न महोदय तत्र।
सत्यम्, अस्तु, किन्तु किमर्थं प्रार्थयमानम् इति मम प्रश्नः।
धनम् अस्ति न महोदय तत्र।
प्रार्थयमानम् इति तत्र अस्ति इति क्रियापदम् अस्ति खलु भगिनि तत्र।
प्राप्यमानः भिक्षुकः अस्ति इति
अतः तत्र एतस्य वाक्यस्य शानजन्तरूपम् एकवारं वदतु तर्हि।
प्राप्यमानः भिक्षुकः,
भिक्षुकः धनं प्रार्थयते इति। अस्तु, तत् तर्हि अन्य कोऽपि सहायं करोति? एकनिमिषः एकनिमिषः तत्र शोभा भगिनी किञ्चित् सहायं करोतु भगिनि तर्हि तत्र।
हा, भिक्षुकः धनं प्रार्थयते, प्रार्थयते भिक्षुकः प्रार्थयते, तस्य प्रार्थयते इत्यस्य प्रार्थयमानः इति भवति। प्रार्थयमानः, प्रार्थयमानः इति भवति। अस्तु, न न तत्र थकारः न भवति, प्रार्थयमानः भिक्षुकः इति। धनं प्रार्थयमानः भिक्षुकः इति भवति।
हा, धनं प्रार्थयमानः भिक्षुकः अस्ति।
अस्ति,
उषा भगिनि
इदानीम् प्रार्थयमानः भिक्षुकः अस्ति।
समीचीनम्,
आम् महोदय।
नाम चन्द्रः शोभते, चन्द्रः शोभमानः अस्ति, किन्तु मध्ये कर्मपदमस्ति चेत् तदपि वक्तव्यं खलु। अतः धनं प्रार्थयमान, केवलं भिक्षुकः प्रार्थयते आसीत् चेत् भिक्षुकः प्रार्थयमानः अस्ति, किन्तु किन्तु धनमपि अस्ति अतः प्रार्थयमानः यत्र अस्ति क्रियापदं प्रार्थयते पूर्वं धनम् इति भवेत् खलु कर्मपदम्। तर्हि प्रार्थयति स्थाने किम् उक्तवती प्रार्थयमानः तर्हि तस्मात् प्राक् अपि कर्मपदं भवेत् अतः धनं प्रार्थयमानः भिक्षुकः अस्ति समीचीनं खलु हा इदानीं प्रथमवाक्यं कृतवती समीचीनम् इदानीं यदि द्वितीयवाक्ये स्थापयितुम् इच्छति तर्हि किं कार्यं करणीयं भवत्या
तम्
इति अस्ति
अतः
अतः तत्र कीदृशपरिवर्तनं करणीयं भवत्या इदानीं
तं धनिकः इत्युक्ते तम् इत्युक्ते भिक्षुकं भिक्षुकः तत्र
किन्तु तत्र यत् कार्यं करोति तस्य विवरणं करोतु इत्युक्ते अस्तु भिक्षुकः प्रार्थयमानः भिक्षुकः धनं प्रार्थयमानः भिक्षुकः अस्ति तत्र तस्मिन् अस्मिन् वाक्ये भिक्षुकः इति प्रथमाविभक्त्याम् अस्ति किन्तु तम् इति कर्मपदम् अस्ति अतः मम कार्यमस्ति द्वितीयाविभक्तिरूपं स्थापनीयं तदेव मया करणीयम् एतादृशं वक्तव्यं खलु यदि एतादृशं वदति तर्हि भवत्याः मनसि अपि स्पष्टता अस्ति इति दृश्यते खलु यदि मनसि स्पष्टम् अस्ति चेत् स्पष्टतया वक्तुं शक्नुमः खलु अतः तत्र भवत्याः कार्यं किमस्ति प्रथमवाक्ये प्रथमविभक्तिरूपं स्वीकृत्य द्वितीयाविभक्तिरूपं द्वितीयवाक्ये स्थापनीयम् तर्हि तम् इत्युक्ते कं
भिक्षुकं
कीदृशं भिक्षुकं
प्रार्थयमानं भिक्षुकं
हा किं प्रार्थयमानं भिक्षुकं
धनं प्रार्थयमानं भिक्षुकं
हा इदानीं धनिकः
धनिकः निन्दितवान्
हा अतः तत्र कर्मद्वयमस्ति किं किम् अस्ति दीर्घवाक्यं यत् भवती उक्तवती तत्र कर्मद्वयमस्ति नाम प्रार्थयमानः प्रार्थयमानम् इति अस्ति प्रार्थयमानः तत्र तस्य कर्मपदं किम् अस्ति धनं
धनं
हा अपि निन्दितवान् इति अस्ति तत्र तस्य कर्मपदं किम् अस्ति
तम्
तम् इति इदानीं नास्ति भवत्याः
भिक्षुकं
हा भिक्षुकं समीचीनं भिक्षुकं धनिकः भिक्षुकं निन्दितवान् कीदृशं भिक्षुकं निन्दितवान् प्रार्थयमानं भिक्षुकं निन्दितवान् किं प्रार्थयमानं भिक्षुकं धनं प्रार्थयमानं भिक्षुकं
भिक्षुकं धनिकः निन्दितवान्
इति एतादृशरूपेण भवती मनसि चिन्तयतु सोपानेन गच्छतु
प्रथम उदाहरणे भक्तः वन्दते भक्तः वन्दमानः अस्ति भवति देवः अनुगृह्णाति तं कर्मपदम् अस्ति तत्र अतः शानजन्तरूपं योजयामः चेत् तम् इत्युक्ते भक्तं अतः
समीचीनं
वन्दमानं भक्तं देवः अनुगृह्णाति इति रूपं सिद्ध्यति
समीचीनं भगिनि हा इदानीम् उत्तमरीत्या उक्तवती समीचीनं भगिनि
अस्तु महोदय
अस्तु हा अग्रे एतादृश वदतु एतादृशं वदतु समीचीनं भवति तर्हि उत्तमं भगिनि
धन्यवादः
अस्तु हा समीचीनं भगिनि अस्तु अग्रे वंशीसुधा भगिनि
आं महोदय चिन्तयामि द्वितीयवाक्यमस्ति आपणिकः विक्रीणीते तेन वस्तुनः मूल्यम् उक्तम् इति वाक्यद्वयमस्ति आपणिकः विक्रीणीते तस्मिन् तु प्रथमं तु विक्रीणानः इति भवति यतोहि तत्र ईकारः अस्ति तकारात् पूर्वम् ईकारः अस्ति शानजन्तरूपं विक्रीणानः इति भवति पुल्लिङ्गरूपमस्ति अतः विक्रीणानः आपणिकः तत्र तु
अस्ति विक्रीणानः आपणिकः अस्ति समीचीनं
तेन वस्तुनः मूल्यम् उक्तं तेन इति तेन इत्युक्ते किम् अस्ति इत्युक्ते तत्र विक्रीणानः आपणिकः सूचयति अतः तस्य परिवर्तनं कृत्वा विक्रीणानेन आपणिकेन वस्तुनः मूल्यम् उत्तमम्
इति भवति समीचीनं भगिनि तथैव अस्ति
इत्युक्ते तत्र तस्य परिवर्तनं कृत्वा कर्तुः परिवर्तनं कृत्वा तृतीयविभक्त्याम् उक्तमस्ति अतः आपणिके विक्रीणेन आपणिकेन वस्तुनः मूल्यम् उक्तम्
इति विक्रीणानेन खलु
विक्रीणानेन आपणिकेन
आपणिकेन तत्र अनेकानि
मूर्धन्यनकाराणि
तथैव अस्ति अस्तु समीचीनम् अस्तु अग्रे तत्र शोभा भगिनी अग्रे करोति वा
आं महोदय देवदत्तः भुङ्क्ते तस्मै एतत् फलं ददातु तत्र देवदत्तः भुङ्क्ते भुङ्क्ते इत्यस्य मुगागमः न भवति भुञ्जानः इति भवति इत्युक्ते तत्र देवदत्तः भुञ्जानः तस्मै
भुञ्जानः
अस्ति तस्मै एतत् फलं ददातु इति तर्हि तत्र तस्मै इति चतुर्थीविभक्तिः ददातु इति अपि क्रियापदम् अस्ति तस्मै इति तत्र भवनीयं देवदत्त इति तर्हि तत्र देवदत्तः इत्यस्य देवदत्ताय भुञ्जानः भुञ्जानः देवदत्तः अतः भुञ्जानाय देवदत्ताय एतत् फलं ददातु इति भवति
समीचीनं तथैव अस्तु भुञ्जानाय देवदत्ताय एतत् फलं ददातु समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
अत्र अस्ति वृक्षः कम्पते तस्मात् पर्णानि पतन्ति प्रथमा तु कम्पते अस्ति तस्य शानजन्तरूपं कम्पमानः अस्ति वृक्षः कम्पमानः अस्ति अग्रे तस्मात् पर्णानि पतन्ति तस्मात् पञ्चमी विभक्तिः अस्ति अतः कम्पमानात् वृक्षात् पर्णानि पतन्ति
इति अस्ति कम्पमानात् वृक्षात् पर्णानि पतन्ति समीचीनं महोदय अस्तु वेदाभगिनी अग्रे
आं महोदय वृक्ष सः शेते तस्य उत्थापनं मास्तु सः शेते तत्र एकार अस्ति तदेव तत्र मुकामः न भवति शयानः वा शयानः इति शयानः सः अस्ति तस्य उत्थापनं मास्तु तस्य इत्युक्ते षष्ठीविभक्ति एकवचनस्य षष्ठीविभक्तिरूपमस्ति तदेव तत्र किं वदामि शयानस्य तस्य उत्थापनं मास्तु
समीचीनं भगिनि तथैव अस्ति शयानस्य तस्य उत्थापनं मास्तु समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे हर्षदा भगिनी अग्रे
शत्रुसैनिकः म्रियते तस्मिन् पुनः बाणप्रयोगः मास्तु अत्र म्रियते ते पूर्व ह्रस्व अकारः अस्ति यतः मुगागमः भवति शत्रुसैनिकः म्रियमाणः अस्ति तस्मिन् पुनः बाणप्रयोगः मास्तु तस्मिन् इति सप्तमी अतः म्रियमाणे शत्रुसैनिके पुनः बाणप्रयोगः मास्तु
इति भवति समीचीनं भगिनि म्रियमाणः शत्रुसैनिके पुनः बाणप्रयोगः मास्तु समीचीनं भगिनि अस्तु निवेदिता भगिनी अग्रे
तत्र महोदय म्रियमाणः इति प्रथमा तिष्ठति वा अथवा
म्रियमाणे एव
म्रियमाणे आमां
म्रियमाणे इति एव वक्तव्यमासीत्, म्रियमाणः इति उक्तवान् वा इति चेत् दोषः आसीत्, म्रियमाणे
न केवलं स्पष्टार्थं पृष्टवती महोदय.
समीचीनं
महोदय. अहम् अत्र लिखित्वा अनन्तरं वदामि. लेखनसमये अहं म्रियमाणे इति सप्तमी एव लिखितवती, वक्तुं समये अहं म्रियमाणः इति उक्तवती. क्षम्यता.
अस्तु 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 भगिनि म्रियमाणे समीचीनम्. अस्तु अग्रे धन्यवादः. अग्रे निवेदिता भगिनि अग्रे.
माता आशङ्कते, सा पुत्रम् आहूय पृच्छति. अत्र आशङ्कते रूपं किं भवति?
आशङ्कमान इति एव इति मन्ये भगिनि.
मान भवति अत्र. आम्, माता आशङ्कमाना अस्ति. सा पुत्रम् आहूय पृच्छति. आशङ्कमाना माता पुत्रम् आहूय पृच्छति. सा प्रथमा विभक्ति अस्ति, अतः आशङ्कमाना माता
इति एव समीचीनम्. उत्तममस्ति भगिनि, तथैव अस्ति. आशङ्कमाना माता पुत्रम् आहूय पृच्छति. समीचीनम्. हा अस्तु, अग्रे सुजाता भगिनि.
आं महोदय. बालिका वाक्यं प्रयुक्ते एकारः अस्ति. प्रयुक्तमानवाक्यं
न तत्र प्रयुङ्क्ते इति पूर्वं वयं कृतवन्तः. पूर्वस्मिन् पुटे पश्यतु, तत्र यदि भवती उत्तराणि लिखितवती न वा न जानामि, किन्तु पूर्वस्मिन् पुटे प्रथमक्रियापदं पश्यतु किमस्ति.
पूर्वस्मिन्
पुटे
प्रयुङ्क्ते
तत्र उत्तरं किम् आसीत्? तत्र रूपं किम् आसीत्?
प्रयुक्तमान.
न
प्रयुञ्जान महोदय.
हा प्रयुञ्जान. हा अत एव तत्र
प्रयुञ्जान
प्रयुञ्जानः इति. समीचीनं. तर्हि इदानीं वदतु. हा
वन् मिनिट् महोदय. किं वाक्यमस्ति महोदय?
अष्टमवाक्यम्.
अष्टमवाक्यं बालिका वाक्यं प्रयुङ्क्ते, सा अन्यां दृष्टवती. प्रयुञ्जाना बालिका अस्ति. वाक्यं प्रयुञ्जाना बालिका अस्ति. प्रयुञ्जाना बालिका वाक्यं प्रयुञ्जाना बालिका अन्यां दृष्टवती.
स्त्रीलिङ्गमस्ति कृत्वा उत्तममस्ति भगिनि, तथैव अस्ति.
धन्यवादः.
प्रयुञ्जाना बालिका अन्यां दृष्टवती. नाम सा एकस्मिन् समये सा प्रयुङ्क्ते सा दृष्टवती अपि, अतः तत्र सा प्रयुञ्जान वाक्यं प्रयुञ्जाना बालिका अन्या दृष्टवती. उत्तममस्ति भगिनि. अस्तु समीचीनं. हा धन्यवादः भगिनि. अस्तु अग्रे इदानीं तत्र उषा भगिनि अग्रे.
आं महोदय. पत्नी भुङ्क्ते, तां पतिः आहूतवान्. भुङ्क्ते ककारः अस्ति, अतः मुगागम न भवति. भुञ्जाना इति भवति. पत्नी भुञ्जाना अस्ति प्रथमवाक्यं. तां पतिः आहूतवान्. ताम् इत्युक्ते पत्नीं, भुञ्जानां पत्नीं. अतः भुञ्जानां पत्नीं पतिः आहूतवान्.
उत्तमं भगिनि. हा इदानीं भवती निपुणा जाता खलु. हा उत्तमम् उत्तमम्. अस्तु समीचीनम्. अस्तु अग्रे वेदा भगिनि
आम् वटवः वेदम् अधीयते तैः गुरुः नमस्कृतः वटवः वेदम् अधीयते वटवः बहुवचनरूपमस्ति वटु वटु शब्दस्य अधीयते वटु इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा महोदय गुरु गुरवः वटु पुल्लिङ्गे अस्ति अधीयते तत्र यकारस्य पूर्वं टेक्स् पूर्वम् अकारः तृष्टः ह्रस्वकारः अस्ति ते मुखागमः भवति
भगिनि किन्तु न किन्तु अधीयते इति क्रियापदस्य वचनं किम्
प्रथमपुरुष एकवचनं
अस्मिन् वाक्ये
वटवः अधीयते बहुवचनमस्ति
अधीयते
बहुवचनमस्ति तत्र प्रथम अधीते इति अस्ति दीर्घ ईकार ओके सो अधीयानः अधीयानाः 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 वटवः वेदम् अधीयानाः वटवः अस्ति तैः गुरुः नमस्कृतः सो अधीयानाः अधीयानाः तत्र तैः किमस्ति रामेश वटवैः वेदं वटवैः
वेदं वटवैः इति न
वटवः तत्र वटवहस्य रूपं भवति वटवैः
वटवैः वा
किमर्थं गुरुः गुरु गुरुं 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 गुरुणा गुरुभ्यां गुरुभिः गुरुभिः तत्र वटवभिः वा वटवभिः वटु वटु शब्दस्य
वटुभिः
वटुभिः करेक्ट् वटुभिः वटुभिः अधीय तत्र अधीयानः तस्य रामैः अधियानैः वटुभिः अधियानैः वटुभिः वेदं वेदम् अधियानैः वटुभिः गुरुः नमस्कृतः
उत्तमं भगिनि हा किन्तु पुनः एकवारं वाक्यं वदतु सम्यक् अस्ति वेदं आरभ्य
वेदम् अधियानैः वटुभिः
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 गुरुः नमस्कृतः
इति अस्ति भगिनि उत्तमं हा समीचीनमस्ति भगिनि हा वेदम् अधियानैः वटुभिः गुरुः नमस्कृतः समीचीनं हा अस्तु अग्रे तत्र वंशीसुता भगिनि ओ अस्तु तत्र समयः जातः खलु तत्र हा किन्तु एतत् तत्र प्रायशः अग्रिमे वर्गे समापयितुं शक्नुमः यदि तत्र हा एतावत् इति एव अस्ति तदनन्तरं तत्र कर्मणि शानज् इदानीं मास्तु हा हा कर्मणि शानज् कर्मणः विशेषणं हा 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 अग्रे तत्र क्लिष्टाः अभ्यासाः सन्ति अतः तत्र अस्तु अस्तु हा अतः एतावत् तदनन्तरं तत्र गीतासोपानपुस्तकं पठामः तर्हि तदनन्तरं अस्तु तर्हि तत्र एतावत् समीचीनमस्ति तत्र अस्तु अन्ते तत्र सुजाता भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि तदनन्तरं सा
आं महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओं श्रीगुरुभ्यो नमः